अथ द्विचत्वारिंशः सर्गः। ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च बभूवस्त्रा सम्भ्रान्ताः सर्वे लङ्कानिवासिनः, विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः, रक्षसाम् च निमित्तानि क्रूराणि प्रतिपेदिरे। ततो गतायाम् निद्रायाम् राक्षस्यो विकृताननाः तद्वनम् ददृशुर्भग्नम् तम् च वीरम् महाकपिम्। सता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः चकारसु महद्रूपम् राक्षसीनाम् भयावहम्। ततस्तु गिरिसङ्काशमतिकायम् महाबलम् राक्षस्यो वानरम् दृष्ट्वा पप्रच्छुर्जनकात्मजा, कोऽयम् कस्य कुतो वायम् किन्निमित्तमिहागतः, कथम् त्वया सहानेन संवादः कृत इत्युत। आचक्ष्वनो विशालाक्षिमाभूत्ते सुभगे भयम्, संवादमसि तापाङ्गे त्वया किम् कृतवानयम्। अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना, रक्षसाम् कामरूपाणाम् विज्ञाने का गतिर्मम, यूयमेवास्य जानीत योऽयम् यद्वा करिष्यति, अहिरेव ह्यहेः पादान् विजानाति न संशयः। अहमप्यतिभीतास्मि नैव जानामि को ह्ययम्, वेद्मि राक्षसमेवैनम् कामरूपिणमागतम्। वैदेह्यावचनम् श्रुत्वा राक्षस्यो विद्रुताद्रुतम्, स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्। रावणस्य समीपे तु राक्षस्यो विकृताननाः विरूपम् वानरम् भीमम् रावणाय न्यवेदिषुः। अशोकवनिका मध्ये राजन् भीमवपुः कपिः, सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः। न च तम् जानकी सीता हरिम् हरिणलोचना, अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति। वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा, प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया। तेनैवाद्भुतरूपेण यत्तत्तव मनोहरम्, नानामृगगणाकीर्णम् प्रमृष्टम् प्रमदावनम्। न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः, यत्र सा जानकी देवी स तेन न विनाशितः। जानकी रक्षणार्थम् वा श्रमाद्वा नोपलक्ष्यते, अथवा कश्रमस्तस्य सैव तेनाभिरक्षिता। चारुपल्लवपत्राढ्यम् यम् सीता स्वयमास्थिता, प्रवृद्धशिंशपावृक्षः स च तेनाभिरक्षितः। तस्योऽग्ररूपस्योऽग्रम् त्वम् दण्डमाज्ञातुमर्हसि, सीता सम्भाषिता येन वनम् तेन विनाशितम्। मनः परिगृहीताम् ताम् तव रक्षो गणेश्वर, कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः। राक्षसीनाम् वचः श्रुत्वा रावणो राक्षसेश्वरः चिताग्निरिव जज्ज्वालकोपसंवर्तिते क्षणः। तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन्नश्रुबिन्दवः, दीप्ताभ्यामिव दीपाभ्याम् सार्चिषः स्नेहबिन्दवः। आत्मनः सदृशान् वीरान् किङ्करान्नाम राक्षसान्, व्याधिदेशमहातेजा निग्रहार्थम् हनूमतः। तेषामशीतिसाहस्रम् किङ्कराणाम् तरस्विनाम् निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः। महोदरा महादंष्ट्रा घोररूपा महाबलाः, युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः। ते कपिम् तम् समासाद्यतोरणस्थमवस्थितम्, अभिपेतुर्महावेगाः पतङ्गा इव पावकम्। ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः, आजग्मुर्वानरश्रेष्ठम् शरैरादित्यसन्निभैः, मुद्गरैः पट्टिशैः शूलैः प्रासतोमरपाणयः। परिवार्य हनूमन्तम् सहसा तस्थुरग्रतः, हनूमानपि तेजस्वी श्रीमान् पर्वतसन्निभः। क्षितावाविध्यलाङ्गूलम् ननादच महाध्वनिम्, సభూత్వా తు మహాకాయో హనుమాన్ మారుతాత్మజః పుచ్చమాస్ఫోటయామాసలంకాం శబ్దేన పూరయన్ తస్యాస్ఫోటిత శబ్దేన మహతాచానునాదినా పేతుర్విహంగా గగనాదుచ్చైశ్చేదమఘోషయత్ జయత్యతి బలో రామో లక్ష్మణశ్చ మహాబలః రాజా జయతి సుగ్రీవో రాఘవేణాభిపాలితః దాసోహం కోసలేంద్రస్య రామస్యాక్లిష్టకర్మణః హనుమాన్ శత్రుసైన్యానాం నిహంతా మారుతాత్మజః నరావణసహస్రం మే యుద్ధే ప్రతిబలం భవేత్ శిలాభిశ్చ ప్రహరతః పాదపైశ్చ సహస్రశః అర్దయిత్వా పురీం లంకామభివాద్య చ మైథిలీం సమర్థార్థో గమిష్యామి మిషతాం సర్వరక్షసాం తస్య సన్నాద శబ్దేన తే భవన్ భయశంకితాః దదృశుశ్చ హనుమంతం సంధ్యామేఘమివోన్నతం స్వామి సందేశ నిశ్శంకాస్తతస్తే రాక్షసాః కపిం చిత్రైః ప్రహరణైర్భీమైరభిపేతుస్తతస్తతః సతైః పరివృతః శూరైః సర్వతః స మహాబలః ఆససాదాయ సంభీమం పరిఘం తోరణాశ్రితం సతం పరిఘమాదాయ జఘానరజనీచరాన్ సపన్నగమివాదాయ స్ఫురంతం వినతాసుతః విచచారాంబరే వీరః పరిగృహ్య చ మారుతిః సూదయామాస వజ్రేణ దైత్యానివ సహస్రదృక్ సహత్వా రాక్షసాన్ వీరః కింకరాన్ మారుతాత్మజః యుద్ధాకాంక్షీ మహావీరస్తోరణం సమవస్థితః తతస్తస్మాద్భయాన్ముక్తాః కతిచిత్ తత్ర రాక్షసాః నిహతాన్ కింకరాన్ సర్వాన్ రావణాయన్యవేదయన్ సరాక్షసానాం నిహతం మహాబలం నిశమ్య రాజా పరివృత్తలోచనః సమాదిదేశా ప్రతిమం పరాక్రమే ప్రహస్తపుత్రం సమరే సుదుర్జయం ఇత్యార్షే శ్రీమద్ రామాయణే వాల్మీకీయే ఆదికావ్యే సుందరకాండే ద్విచత్వారింశ సర్గః.